इयम् आकाशवाणी सम्प्रति वार्ताः श्रूयन्ताम् प्रवाचिका निधिः तिवारी। अथ वार्ताः। लोकसभा निर्वाचनस्य द्वितीय चरणाय मध्यस्तरीय मतदानानि जातानि। एतस्मिन् चरणे द्वादश राज्येषु केन्द्रशासित प्रदेशेषु अपि अष्टाशीतिः आसनेभ्यः मतदानम् अभवत्। केरलस्य विंशतिः, कर्णाटकस्य चतुर्दश, राजस्थानस्य त्रयोदश, उत्तरप्रदेश महाराष्ट्रयोः अष्टौ, मध्यप्रदेशस्य षड्, असम बिहारयोः पञ्च, पश्चिमबंगाल छत्तीसगढ़योः त्रीणि, मणिपुर त्रिपुरा जम्मू कश्मीर राज्याणाम् एकैव आसनेभ्यः मतदानं शान्तिपूर्णरीत्या संजातम्। मतदान प्रक्रिया एतेषु राज्येषु प्रातः सप्तवादनतः आरभ्य सायं सप्तवादनं यावत् प्रचलिता। अस्माकं वार्ताहरः संसूचितवान् यत् विभिन्नेषु स्थलेषु पंक्तिस्थिताः जनाः उत्साहवर्धकाः आसन्, अपि च विशिष्टरूपेण युवमतदातारः उत्साहिनः आसन्। एतस्मिन् चरणे द्व्यधिकद्विशतोत्तरैकसहस्रं प्रत्याशिनः समराङ्गणे आसन्। छत्तीसगढ़राज्ये एतेषु त्रयेषु कांकेर, महसमुंड, राजनांदगांव स्थलेषु मतदानं शान्तिपूर्ण पद्धत्या जातम्। 73% मतदानम् अत्र निष्पन्नम्। तत्रैव उत्तरप्रदेशे अपि अष्टासनेभ्यः मतदानं शान्तिरीत्या प्रचालितम्। प्राप्तसूचनानुसारि तत्र 50% सम्पूर्णं मतदानं समनुष्ठितम्। सर्वाधिकं मतदानं अमरोहा क्षेत्रे 61.89%, न्यूनं मतदानं च मथुरायां 44% अवलोकितम्। एवमेव शेष राज्येष्वपि मतदानं निष्पादितं मतदातृभिः। उपराष्ट्रपतिः जगदीप धनखडः प्रावोचत् यत् संस्कृतभाषा दैवीय भाषास्ति, अपि च अस्माकं आध्यात्मिक लक्ष्यस्यान्वेषणोपक्रमे परमात्मसम्बन्धान्वेषणे च सेतुत्वेन कार्यं सम्पादयति। ह्यः तिरुपतिस्थे राष्ट्रिय संस्कृत विश्वविद्यालयस्य तृतीयं दीक्षांत समारोहं सम्बोधयन् उपराष्ट्रपतिः संस्कृतं मानव सभ्यतायै सांस्कृतिक आधारम् उद्घोषितवान्। भारतीय ज्ञान परम्परायाः पुनरुद्धार प्रसारयोः राष्ट्रिय संस्कृत विश्वविद्यालय सदृशानां संस्थानानां भूमिकाम् उल्लेखयन् उपराष्ट्रपतिः नवीन पाठ्यक्रमस्य संवर्धनाय अन्तर्विषयक अनुसन्धान कार्यम् उत्थापयितुं च उक्तवान्, येन हि संस्कृतस्य समृद्धन्यास आधुनिक शैक्षणिक आवश्यकतयोर्मध्ये भिन्नतां समापयितुं शक्यते। लोकसभा निर्वाचनस्य अवशिष्ट सोपानेभ्यः प्रचाराभियानं तीव्रं जातम्। शीर्षप्रचारकाः स्वीय प्रत्याशिनां समर्थने अपि च मतदातॄन् आक्रष्टुं प्रचाराभियाने पूर्णमनसा मग्नाः सन्ति। प्रधानमन्त्री भाजपेति दलस्य च वरिष्ठ नेता नरेन्द्रमोदी पश्चिमबंगालराज्ये मालदायां, बिहारस्य च अररिया मुंगेर जनपदयोः जनसमूहान् सम्बोधितवान्। मुंगेरस्थले राजद प्रशासने आरोपं साधयन् श्रीमोदी प्रोक्तवान् यत् जंगलराजत्वेन मुंगेर जनपदं प्रभावितं जातम्। परञ्च एनडीए जदयू दलाभ्याम् अंधकारात् एनं जनपदं बहिः निष्कासितम्। अपरत्र विपक्षी संयुतेः नेतारः लोकसभा निर्वाचनस्य तृतीय चतुर्थ चरणान्तर्गतं संसदीय क्षेत्रेषु नैकाः नैर्वाचनिक जनसभाः कुर्वन्ति इति वार्ताः।